सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. क्लैब्यं मात्मगमः पार्था नैतत्त्वयुपपद्यते शूद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप. इत्युक्ते अत्र अयं श्लोकः भगवद्गीतातः उद्धृतः श्लोकः. भगवद्गीता महाभारतग्रन्थे अस्ति. भगवद्गीतायां श्रीकृष्णः अर्जुनं बोधयति. किं बोधयति इति अस्माभिः अवगन्तव्यं. भगवान् श्रीकृष्णः अर्जुनम् उत्साहयति. हे अर्जुन, चिन्ता मास्तु, हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ, अपि च कार्यं कुरु अथवा युद्धं कुरु इति वदति. वयमपि यदा कदाचित् तादृशरीत्या एव व्यवहरामः. किन्तु अत्र अस्माकं कृते अस्मिन् श्लोके एकः सन्देशः अस्ति. सः सन्देशः कः इत्युक्ते, मनसः दुर्बलतां त्यक्त्वा कार्याणि कुर्वन्तु इति एव अत्र सन्देशः. किन्तु किमर्थम् उक्तवती श्लोकमित्युक्ते, अस्माकम् अद्यतनप्रवर्तमानः विषयः अस्ति त्वाप्रत्ययान्तरूपाणि. तदर्थम् अत्र श्लोके वदति, हृदयदौर्बल्यं त्यक्त्वा समीचीनानि कार्याणि कृत्वा जीवतु इति भगवान् उक्तवान्. अत्र त्यक्त्वा इति पदमस्ति. तत्र त्यक्त्वा इति पदं क्त्वा प्रत्ययान्तरूपं, त्यज् इति धातुः अस्ति, लट्लकाररूपं त्यज् इति क्त्वान्तरूपं त्यक्त्वा. किन्तु त्यज् धातुतः त्यक्त्वा इति रूपं कथमागतं, तस्य कृते बहूनि सूत्राणि सन्ति. यदि वयं व्याकरणकक्षां गच्छामश्चेत् तदा वयम् अवगन्तुं शक्नुमः कथं रूपं निष्पन्नं भवति इत्यस्मिन् विषये बहूनि सूत्राणि कार्याणि कुर्वन्ति. अपि च अत्र किञ्चित् पीठिकारूपेण, इन्ट्रोडक्षन् पीठिकारूपेण किञ्चित् क्त्वान्तरूपाणां विषये वदामि. अत्र क्त्वान्तरूपाणां विषये केचन विषयाः स्मर्तव्याः. सर्टन् थिङ्ग्स् टु रिमेम्बर्. ते के इत्युक्ते, क्त्वाप्रत्ययान्तरूपं क्रियां बोधयति. अतः धातुः सकर्मकधातुः चेत् कर्मपदं स्वीकरोति, अकर्मकः चेत् कर्मपदं न स्वीकरोति. इत्युक्ते यत्र कुत्रापि वाक्ये क्त्वान्तपदमस्ति चेत् तत्र कर्मपदस्य सम्भावना अस्ति. अपि च तत्र तस्मिन् वाक्ये एकः एव कर्ता स्यात्, अपि च सः एव बह्व्यः क्रियाः करोति चेत् तदा पूर्वकालिकी क्रियायाः त्वान्तरूपं योजयामः. त्वान्तपदम् अव्ययम्, अतः तस्य रूपपरिवर्तनं न भवति पुरुषमनुसृत्य अथवा विभक्तिमनुसृत्य रूपपरिवर्तनं न भवति. अपि च अत्र त्वान्तरूपं यथा अत्र केषुचित् स्थलेषु अथवा केषुचित् धातुषु इडागमः भवति, केषुचित् न भवति. तथा किमर्थम्? अपि च धातोः पूर्वम् उपसर्गः अस्ति चेत् ल्यबन्तरूपं सिद्ध्यति, न तु क्त्वान्तरूपं. वयं जानीमः. एतान् विषयान् मनसि निधाय अग्रे गच्छामश्चेत् अस्माकं कार्यं सुलभं भवति. उत्तमम्. अनन्तरम् अत्र गते सप्ताहे वयं गीतासोपानं पुस्तकतः कांश्चन अभ्यासान् कृतवन्तः. अद्यापि वयम् अवशिष्टान् अभ्यासान् कुर्मः. अत्र सर्वेषां पार्श्वे पुस्तकमस्ति वा? गीतासोपानं पुस्तकं, तत्र क्त्वा इति अभ्यास पदमस्ति. तत्र अभ्यासः इति दत्तमस्ति. कस्मिन् पुटे इत्युक्ते त्रिंशत्युत्तरशततमे पुटे तत्र अवशिष्टाः अभ्यासाः सन्ति, तान् अभ्यासान् कुर्मः अधुना. सर्वे तं पुटं पश्यन्तु.
भगिनी पृष्ठसङ्ख्या का अस्ति?
त्रिंशत्युत्तरशततमे पुटे, त्रिंशत्यधिकशततमे पुटे इत्युक्ते 130.
अस्तु, धन्यवादः.
अत्र तस्मिन् पुटे यथोदाहरणं रिक्तस्थानानि पूरयता वयं गते सप्ताहे कृतवन्तः. अद्य वयं द्वितीयम् अभ्यासं कुर्मः. अत्र भूमा भगिनी, अत्र भवत्याः पार्श्वे अस्ति वा पुस्तकम्?
आं भगिनि,
करोतु.
यथोदाहरणं रिक्तस्थानानि पूरयत, गच्छति गत्वा, पश्यति दृष्ट्वा.
भगिनि, तत् वयं गते सप्ताहे एव वयं कृतवन्तः इति भाति. इत्युक्ते यदि भवती कर्तुमिच्छति चेत् सम्यक् एव, तत्र कोऽपि कापि बाधा नास्ति, परन्तु वयं कृतवन्तः. तदर्थं द्वितीयम् अभ्यासं कुर्मः अधुना. गृहपाठरूपेण भवन्तः कृतवन्तः चेत् अधुना किञ्चित् चिन्तनं कुर्मः. तत्र उत्तमानि वाक्यानि दत्तानि भगवद्गीतातः, उद्धृतानि वाक्यानि दत्तानि. तदर्थं किञ्चित् तेषां विषये चिन्तनं कुर्मः, द्वितीयम् अभ्यासं कुर्मः.
अस्तु, अत्र एतानि वाक्यानि पठत. क्वान्तरूपाणि अवलोक्यत च, शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व.
अत्र भगिनि, अत्र अवलोकयत अस्ति. अवलोकयत, अवलोकयति इति लट् रूपम्, अत्र अवलोकयत इति अस्ति. तस्य रूपं कोऽपि वदति वा?
अवलोकयत
शोभा भगिनी वदतु.
लोट्लकारे मध्यमपुरुषे बहुवचन अस्ति वा भगिनि?
अवलोकयत, अत्र अवलोकयत मध्यमपुरुषरूपं. भवान् तत्र त्वं, त्वम् इति रूपम् अस्ति. त्वम् इत्यस्य कृते अवलोकय, किन्तु मध्यमपुरुष बहुवचनम्. यूयम् अवलोकयत, एतानि वाक्यानि पठत, क्लान्तरूपाणि अवलोकयत. अवलोकयति उत्तमं पदं, करोतु. अत्र प्रथमं वाक्यं पठतु पुनः.
शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व.
अत्र अस्माकं कृते अत्र कार्यम्, अस्माकं कार्यं किमपि नास्ति. वाक्यं तत्रैव दत्तमस्ति, किन्तु वाक्यस्य अर्थः कः, तत्र रूपाणि कानि इति अस्माभिः चिन्तनीयमस्ति. अत्र शत्रून् वदतु भगिनि रूपं.
शत्रून् द्वितीयाविभक्ति बहुवचन, बहुवचनं.
उत्तमम्, उत्तमम्. अपि च अत्र जित्वा इति पदमस्ति. अत्र तने महोदय वक्तुं शक्नोति वा जित्वा इत्यस्य धातुः कः, तस्य लट् रूपं किम्?
अहं मन्ये अत्र जी धातुः अस्ति, तस्य लट् रूपं जयति इति अस्ति वा
महोदय? जित्वा, जित्वा जयति, जी इति धातुः, ह्रस्व इकारान्तधातुः, जी धातुतः जयति. तत्र जयति इत्यस्य तत्र गुणः भूत्वा तत्र जयति इति रूपम् आगच्छति. किन्तु अत्र धातुः अनिट् धातुः इति कृत्वा केवलं जित्वा, केवलं त्वा इति योजयामः. साधारणतया साधारणतया अजन्तधातवः अनिटः सन्ति. केवलं चतुर्दशधातवः एव सेटः केवलम् अजन्तधातुषु केवलं चतुर्दश धातवः एव सेटः सन्ति, अन्ये सर्वे अपि अनिटः, तत्र इडागमः न भवति. किन्तु धातुः एव जि जि धातुतः जयति. अहं चिन्तयामि भुवादिगणीयधातुः अपि च अत्र सकर्मकधातुः, किन्तु सकर्मकप्रयोगः अकर्मकप्रयोगः द्वयमपि अस्ति, किन्तु अत्र शत्रून् जित्वा इति अस्ति इति कृत्वा सकर्मकप्रयोगः जी धातोः उत्तमम्. अपि च अत्र समृद्धं राज्यं, भूमा भगिनी अत्र तयोर्मध्ये सम्बन्धः कः?
विशेषणविशेषभावः.
उत्तमम्. अपि च अत्र भुङ्क्ष्व इति पदमस्ति, जानाति चेत् किञ्चित् वदतु भुङ्क्ष्वरूपं.
भुङ्क्ष्व लोट्लकार मध्यमपुरुष एकवचनं.
उत्तमम्. अत्र किञ्चित् वदामि, अत्र भुङ्क्ष्व इति मध्यमपुरुष लोट् एकवचनं, किन्तु अत्र धातुः अस्ति भुज्, भुज् धातुः. भुज् धातोः तत्र रूपद्वयमस्ति. किमर्थमित्युक्ते उभयपदी धातुः इति कृत्वा तत्र भुनक्ति इति परस्मैपदिरूपं, भुङ्क्ते आत्मनेपदिरूपं. भुङ्क्ते आत्मनेपदिरूपम् अस्ति इति कृत्वा अत्र भुङ्क्ष्व इति आत्मनेपदी मध्यमपुरुष लोट् रूपं. तत्र भुङ्क्ते इत्यस्य रूपाणि कोऽपि वदति वा? अत्र लट् रूपाणि
अहं वदामि.
वदतु भगिनि.
भुङ्क्ते भुङ्क्तेते भुङ्क्ते भुङ्क्त्येते
तथा न भवति भगिनि. अत्र भुङ्क्ते भुञ्जाते भुञ्जते.
क्षम्यते.
किन्तु अहं वयं किम् उक्तवन्तः अत्र भुङ्क्ते भुञ्जाते भुञ्जते लट् रूपाणि, किन्तु अत्र भुङ्क्ष्व इति लोट् रूपं दत्तमस्ति. सम्यक्. अनन्तरम् अत्र द्वितीयं वाक्यं पठतु भगिनि, भूमो भगिनि.
शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु.
शास्त्रविधानोक्तम् इति समस्तं पदं, शास्त्रैः विधानम् उक्तम्. अत्र अहं चिन्तयामि तृतीया तत्पुरुषसमासः इति अहं चिन्तयामि, किन्तु तत्र समासद्वयमस्ति. शास्त्रैः विधानम् उक्तम्, शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु इत्युक्ते किं भगिनि? भवती किम् अवगतवती अस्मिन् विषये?
शास्त्राणां किं वदिष्यति, किं वदिष्यति तत् कार्यं वयं
अस्माभिः करणीयम्
अस्माभिः करणीयम्
विद्यर्थे. शास्त्रविधानोक्तं, भवान् शास्त्रविधानं ज्ञात्वा कर्म करोतु इति अर्थः. तत्र शास्त्रैः यदुक्तं तदेव करोतु. तद् प्रथमतया तद् जानन्तु, सर्वे जानन्तु, तदनन्तरं कर्म कुर्वन्तु इति अर्थः. ज्ञात्वा अत्र उषा भगिनी वदतु, ज्ञात्वा तत्र धातुः कः, लट् रूपं किं?
जानाति
जानाति ज्ञाधातुः. उत्तमम्. अपि च शोभा भगिनी तत्र कर्मशब्दस्य रूपाणि वदतु एकवारं.
कर्मशब्दस्य रूपाणि कर्म
कोऽपि
सर्वा इति भगिनि.
अत्र भवती यदि स्मरति चेत् वदतु, नो चेत् तत्र चिन्ता मास्तु. कर्मशब्दस्य रूपाणि कोऽपि वदति वा? अत्र कर्मशब्दः नकारान्तपदम् अपि च नपुंसकलिङ्गपदं कर्मशब्दः सुबन्तपदम्. अत्र उषा भगिनी वक्तुं शक्नोति वा?
आं भगिनि, नकारान्तः नपुंसकलिङ्ग, कर्मन् शब्दः, कर्म कर्मणि कर्मणि कर्माणि, हे कर्मन् हे कर्मणि हे कर्माणि, कर्म कर्मणि कर्माणि, कर्म
कर्मणा कर्मणा
कर्मणाभ्यां
कर्मभ्यां
कर्मभ्यां कर्मै
कर्मभिः कर्मभिः. चिन्ता मास्तु भगिनि, अत्र कोऽपि वदति चेत् सम्यक् एव. अत्र शीतल भगिनी भवती वदति वा? एकवारं कोऽपि स्मरति चेत् सम्यक् वदतु.
वीच
कर्मशब्दं वदतु, जानाति चेत्.
न न जानामि
भगिनि.
चिन्ता मास्तु, वदति वा महोदय, वदतु सर्वेषां.
प्रयत्नं करोमि. कर्म कर्मणि कर्माणि, हे कर्म हे कर्मणि हे कर्माणि, कर्म कर्मणि कर्माणि, कर्मणा कर्मण कर्मभ्यां कर्मभिः, कर्मणा कर्मणे क्षम्यतां, कर्मणे कर्मभ्यां कर्मभ्यः, कर्मणः कर्मभ्यां कर्मभ्यः, कर्मणः कर्मणोः कर्मणां, कर्मणि कर्मणोः कर्मसु.
उत्तमम्. अत्र कर्मणि सप्तमी एकवचनं कर्मणि. उत्तमं महोदय, धन्यवादः. सर्वेषां कृते एकवारं पुनस्मरणं भवति तावदेव. तत्र कोऽपि चिन्ता मास्तु, न वदति चेत् तत्र चिन्ता नास्ति. अनन्तरम् अत्र इतोपि किं दत्तमस्ति पुस्तके? धन्यवादः भूमा भगिनी. अत्र उषा भगिनी भवती करोति वा अत्र तृतीयं वाक्यम्?
आम् भगिनि. पाण्डवसेनां दृष्ट्वा दुर्योधनः ब्रवीति.
अत्र पाण्डवसेनां रूपं वदतु.
पाण्डवसेनां द्वितीयवर्ति बहुवचनं न, षष्टिविभक्ति बहुवचनं,
द्वितीय एकवचनं.
उत्तमम् उत्तमं, गीताञ्जलिः भगिनी उक्तवती. अत्र पाण्डवसेना प्रथमान्तं रूपं. आं भगिनि, किन्तु अत्र समस्तपदं पाण्डवानां सेना, तत्र षष्टितत्पुरुषसमासः अस्ति समस्तपदं कृत्वा. किन्तु समस्तपदम् अपि सुबन्तपदम्. अत्र सेना यथा भवती उक्तवती लता शब्दवत्, सेनां दृष्ट्वा, अत्र दृष्ट्वा इति क्त्वान्तरूपम् अस्ति. तदर्थं दृष् धातुः सकर्मकः अस्ति इति कृत्वा द्वितीया एकवचनं. पूर्वस्मिन् वा दृष् धातुः वदतु भगिनि.
पश्यति अपि लट्लकाररूपम् अस्ति न भगिनि? पश्यति पश्यतु,
दृष् धातोः लट् रूपं पश्यति एव. किन्तु अत्र द्वितीया एकवचनं दत्तमस्ति. पाण्डवसेनां दृष्ट्वा दुर्योधनः ब्रवीति. अत्र ब्रवीति इत्यस्मिन् विषये कोऽपि वदति वा? भवती एव वदतु किञ्चित्. ब्रवीति इत्युक्ते किं? अत्र पर्यायवाचकपदं वदतु
किं भगिनि?
अत्र सिनोनिम् वदतु ब्रवीति इत्यस्य कृते.
ब्रवीति वदति
वदति तावदेव. वदति इत्युक्ते अत्र ब्रवीति इति पदमस्ति, तत्र धातुः अस्ति ब्रू धातुः, दीर्घ रूकारान्तधातुः ब्रू, तस्य रूपं ब्रवीति, किन्तु ब्रू धातुः उभयपदी धातुः, अतः रूपद्वयम् अस्ति ब्रवीति ब्रूते, आत्मनेपदीरूपं ब्रूते, परस्मैपदीरूपं ब्रवीति, अत्र परस्मैपदीरूपं दत्तमस्ति. किन्तु ब्रवीति इति पदस्य तस्य लट्लकाररूपम् अत्र विकल्पेन रूपद्वयमस्ति, ब्रवीति आह रूपद्वयं, ब्रवीति एकं रूपम्, आह इति अन्यत् रूपम् अस्ति. ब्रूधातोः रूपं, ब्रूधातुः तत्र विशेषद्वयमस्ति, ब्रूधातुः उभयपदी धातुः अपि च द्विकर्मकधातुः, तदर्थम् अत्र ब्रवीति इत्युक्ते वदति एव. अत्र अन्यत् पदमस्ति आह इति अपि रूपमस्ति. उत्तमम्. उषा भगिनी चतुर्थं वाक्यं पठतु.
गुरून् हत्वा भोगान् कथं भुञ्जीय, गुरून् तृतीय गुरुः द्वितीय भवति, बहुवचने अस्ति. गुरून् हत्वा भोगान् कथं भुञ्जीय, भुञ्जीय इत्युक्ते किं भगिनि? भुञ्जीय
अत्र एकम् पदं स्वीकृत्य किञ्चित् वदामः. अत्र हत्वा इति पदमस्ति, कोऽपि जानाति चेत् वदतु, नो चेत् अहं वदामि. तले महोदय प्रयत्नं करोति वा? हत्वा,
हत्वा इत्य अत्र धातुः हन् अस्ति, तस्य त्वान्तरूपं हत्वा, सकर्मकधातुः अस्ति, अपि च अनिट् धातुः अस्ति, तद् अनन्तरं
न जानामि अत्र पश्यतु, अत्र भवान् किम् उक्तवान्? अत्र हन् धातुः सकर्मकः एव, किन्तु अत्र पश्यतु गुरून् हत्वा. भवान् सकर्मकः उक्तवान् वा अकर्मकः इति उक्तवान्?
सकर्मक,
सकर्म. उत्तमम् उत्तमम्. अत्र गुरून् हत्वा इत्युक्ते अत्र हन् धातुः सकर्मकधातुः, हत्वा, किन्तु तत्र रूपाणि पश्यन्तु अत्र रूपाणि कथं सन्ति इति एकवारं शृण्वन्तु. एकवचनरूपं हन्ति, बहुवचनरूपं घ्नन्ति, तादृशरीत्या रूपाणि भवन्ति. हन्ति एकवचनरूपं, हन् धातोः एकवचनरूपं हन्ति, किन्तु बहुवचनरूपं घ्नन्ति. अपि च अत्र भोगान् इति पदमस्ति. भगिनी उषा भगिनी वदतु रूपं.
भोगान् अपि तृतीयभक्ति अस्ति भगिनि,
द्वितीय बहुवचनं. उत्तमम्. अत्रापि भुज् धातुः, भुज् भोगः, त्यज् त्यागः, पच् पाकः, तत्र प्रत्ययः अस्ति, तेन अत्र भुज् धातोः रूपमेव भोगः, किन्तु भोगः शब्दस्य द्वितीयान्तं बहुवचनरूपं दत्तमस्ति, भुज् भोगान्. गुरून् हत्वा भोगान् कथं भुञ्जीय, भुञ्जीय इति पदमस्ति. भुञ्जीय इत्युक्ते कथं खादामि, खादानि इति भवति अत्र. भुञ्जीय इति पदम् अपि भुज् धातोः रूपम्. पूर्वं वयं पठितवन्तः भुङ्क्ष्व इति रूपं वयं दृष्टवन्तः, किन्तु अत्र भुज् धातोः रूपम् एव भुञ्जीय, विधिलिङ्गलकाररूपं भुञ्जीय. कथं भुञ्जीय इति सः प्रश्नं पृच्छति अर्जुनः, गुरून् हत्वा कथं भोगान् भुञ्जीय इति वदति. हत्वा इत्युक्ते मारयित्वा, हननं करोति.
भुञ्जीय भगिनी उत्तम पुरुष एकवचन.
भुञ्जीय विधिलिङ्गलकार तत्र उत्तमपुरुष एकवचनं भगिनी. भुञ्जीय रूपाणि आत्मनेपदि भुङ्क्ते इत्यस्य रूपाणि विधिलिङ्गरूपाणि इति कृत्वा तत्र भुञ्जीय भुञ्जीवहि भुञ्जीमहि तादृशरीत्या रूपाणि भवन्ति. अत्र प्रथमपुरुषरूपाणि भुञ्जीता भुञ्जीयातां भुञ्जीरन्. परन्तु यथा भवती उक्तवती अत्र भुञ्जीय उत्तमपुरुष एकवचनरूपम्. अहं कथं भुञ्जीय इति अर्जुनः प्रश्नं पृच्छति. उत्तमम्. अधुना अत्र गीताञ्जलिभगिनी भवती पठतु अग्रिमं वाक्यम्.
एवम् उक्त्वा अर्जुनः उपाविशत्.
उक्त्वा
वच् धातु त्वान्तरूपम् उक्त्वा अर्जुनः कर्तृपदम् एकवचन प्रथमविभक्ति. एवम् उक्त्वा अर्जुनः उपाविशत्. उपाविशत् इत्युक्ते लङ्लकाररूपम् उपसर्ग उप अस्ति चेत् उपाविशत् एकवचन अस्ति.
उत्तमम्. अत्र एकवारं पदविच्छेदं कुर्मः चेत् तत्र भवती जानाति एव, परन्तु अन्येषां कृते वदामि. अत्र उपसर्गः अस्ति चेत् प्रथमतया उप उपसर्गपूर्वकः विश् धातुः अस्ति. प्रथमतया अविशत् इति विशति इति पदस्य लङ्लकाररूपम् अविशत्. तदा एकवारं लङ्लकाररूपं तत्र स्थापयित्वा उपसर्गं योजयामः. तदा किं भवति? उप उपसर्गपूर्वकः अविशत्. तदा सवर्णदीर्घसन्धिः भूत्वा उपाविशत् इति लङ्लकाररूपं सिध्यति. उपाविशत् कोऽपि वदति वा अत्र उपाविशत् इत्यस्य रूपाणि लङ् रूपाणि? अत्र कोऽपि प्रयत्नं करोति वा? उपाविशत्
उपाविशताम् उपा
सुन्दरम्
उपाविशः उपाविशं
विशतम्
उपाविशतम् उपाविशत उपाविशं
विषम
उपाविशाव उपाविशाम.
उत्तमं भगिनि, धन्यवादः. तावदेव अत्र तादृशरीत्या वक्तव्यं.
भगिनि
वदतु महोदय.
मम एकः प्रश्नः आसीत् अत्र. सर्वदा एवम् एव, सर्वदा यदा उपसर्गः भवति तदा एवम् एव रूपं वयं साधयामः वा? प्रथमतया लङ्गरूपं साधयामः, अनन्तरम् एव उपसर्गं योजयामः इति?
तथा एव कर्तव्यम्.
अस्तु,
तथा तादृशरीत्या कुर्मः चेदेव तत्र रूपं सम्यक् रूपं सिद्ध्यति.
अस्तु
भगिनि, प्रश्नः पठति इत्यस्य अलङ्रूप अपठत् भवति, उपविशत् कथं भवति?
अत्र अधुना गीताञ्जलिभगिनी उक्तवती उप उपसर्गपूर्वकः विश् धातुः अस्ति. तत्र विश् धातुः विशति इति लट् रूपम् अस्ति. विशति इत्यस्य लङ्रूपं यथा भवती उक्तवती अविशत्. अनन्तरम् उपसर्गं योजयामः उपयोगः अविशत् उपाविशत्. तत्र सवर्णदीर्घसन्धिः भवति.
प्रथमवारं पश्यामि उपा इत्यस्य लङ् रूप उपसर्गस्य अतः अस्तु भगिनि उपसर्ग उप् अस्ति चेत् तदेव भवति वा
तादृशरीत्या एव कर्तव्यं भगिनि लङ् रूपाणि यथा उपसर्गः अस्ति चेत् तत्र यदि वयं शब्दको तत्र अष्टाध्यायीं पश्यामश्चेत् तत्र वयं न द्रष्टुं शक्नुमः उपाविशति इति रूपं प्रथमतया तत्र धातुः कः इति द्रष्टव्यम् अनन्तरं लङ् रूपं द्रष्टव्यम् अनन्तरम् उपसर्गं योजयित्वा तत्र तयोः पदयोः मेलनं कुर्मः उत्तमम् अधुना अत्र गीताञ्जलि भगिनी षष्ठं वाक्यं वदतु
तत् धाम गत्वा न निवर्तते
अत्र धाम इति पदमस्ति धाम इत्युक्ते किं
धाम इत्युक्ते स्थानं
स्थानम् उत्तमं निवासः निलयं स्थानं तत्र भगवद्गीतायां पञ्चादश अध्याये पञ्चदशोऽध्याये एकः श्लोकः अस्ति यद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति श्लोकः अस्ति तस्मात् एव उद्धृतं वाक्यम् एकम् एतद् वाक्यं तद्धाम गत्वा न निवर्तते तद्धाम गत्वा तत्र सन्धिं कुर्मः चेत् तत्र जस्त्वसन्धिः भवितुम् अर्हति परन्तु श्लोके तद्धाम इत्येव दत्तमस्ति यद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति तत्र श्लोकस्य भागः धाम इत्युक्ते यथा भवती उक्तवती स्थानम् अपि च निवर्तते वदतु भगिनि
निवर्तते आत्मनेपदे भगिनि एकवचन प्रथमपुरुष निवर्तते
निउपसर्गपूर्वकः
नि उपसर्ग अस्ति वर्तते नि नि विपरीतार्थक् नास्ति अति अत्र अधिक
अत्र वाक्यं पश्यतु अत्र तद्धाम गत्वा न निवर्तते इति वाक्यमस्ति वाक्यं दृष्ट्वा भवती किम् अवगतवती वदतु एकवारं
तद्धाम गत्वा न निवर्तते इत्युक्ते स्थानं प्राप् स्नानं स्थानं प्राप्त्वा
प्राप्य
स्थानं प्राप्य न भविष्यामि भवति
अत्र भगिनि अत्र न निवर्तते वदतु भगिनि भूमा भगिनि
न पुनरागच्छति
सुन्दरं न प्रत्यागच्छति न पुनः पुनरावृत्तिः नास्ति न निवर्तते इत्युक्ते तस्मात् तत् स्थानतः पुनः न प्रत्यागच्छन्ति ये जनाः तत्र गच्छन्ति ते तत् त्यक्त्वा ततः पुनः न आगच्छन्ति तत्र पुनरागमनं नास्ति
इत्यस्मिन्
यदि योगी तत्र गच्छति चेत् तद्धाम गच्छति चेत् ततः तस्य पुनरागमनं न भविष्यति इति अर्थः
नि उपसर्ग विपरीतार्थक अस्ति अत्र
अत्र पश्यतु डबल् नेगेटिव् अस्ति न निवर्तते
अस्तु भगिनि अहं न अवगच्छामि धन्यवादः भगिनि
भगिनि अत्र धाम इति शब्द कर्मवत् अस्ति वा धामन् इति
नपुंसकलिङ्ग अस्ति इति कृत्वा तत्र उत्तमरीत्या उक्तवान् महोदय. अत्र गत्वा इति गम् धातुः सकर्मकः, किन्तु अत्र धाम एव दत्तमस्ति इत्युक्ते अत्र धामपदं नपुंसकलिङ्गपदमस्ति चेदेव तत्र द्वितीय एकवचनं भवति चेदेव तत्र तथा लिखितमस्ति. अतः नपुंसकलिङ्गपदमेव. किन्तु भवान् दृष्टवान् वा अत्र प्रातिपदिकं किम्?
न, अहं कर्म यथा अस्ति तथा अहं चिन्तितवान् धाम अपि भवितुम् अर्हति. अहं न दृष्टवान् परन्तु
अत्र धाम इति पदं प्रातिपदिकं द्रष्टव्यं. किन्तु यथा भवान् उक्तवान् नपुंसकलिङ्गपदं धाम गत्वा नानिवर्तते. उत्तमम्. अपि च सप्तमं वाक्यं कः करोति? शोभा भगिनी भवती करोतु.
जीवः इन्द्रियाणि गृहीत्वा नवं शरीरं याति. अत्र
वदतु.
न, पृच्छतु भगिनि.
अत्र जीवः इत्यस्मिन् स्थाने जीवी तत्र नकारान्तपदमपि अस्ति. अत्र इन्द्रियाणि इति पदमस्ति, तस्य रूपं किम्?
इन्द्रियाणि कर्मपदं बहुवचने.
बहुवचने, उत्तमं. द्वितीयबहुवचनम् इन्द्रियाणि गृहीत्वा. गृहीत्वा इत्यस्मिन् विषये वदतु.
गृह्णाति पदस्य त्वान्तरूपं गृहीत्वा अस्ति.
गृह्णाति रूपाणि वदतु एकवारम्.
गृह्णाति वदामि वा भगिनि?
वन् थिङ्ग् ऐ वाण्ट् टु अनौन्स् हियर्, वि डोण्ट् नीड् टु फील् शै. इट् इस् अ क्लास् दट् वी आर् आल् वर्किङ्ग् टु वर्ड्स् अण्ड् डोण्ट् फील् बेड् इफ् ऐ आस्क् यू क्वश्चन्. ऐ रिक्वेस्ट् यू टु अण्डर्स्टाण्ड्, टेक् इट् इन् ए पासिटिव् वे सो दट् वी आल् केन् बेनिफिट्. Here in this, nobody is an expert. I request you to keep this in mind. Don't get frustrated because I'm asking you questions. Sometimes I'm also learning a lot of things from you. Even though I'm doing my homework. Please remember this. Vadatu Bhagini.
Grinnati, grinnitaha, grinnanti. Grinnasi, grinnataha. गृह्णथ, गृह्णामि, गृह्णावः, गृह्णामः.
अत्र गीताञ्जलिभगिनी भवती वदतु एकवारं समीचीनतया, वदतु रूपाणि.
अहं सम्यक् न जानामि किन्तु प्रयत्नं करोमि भगिनी. गृह्णाति, गृह्णीतः, गृह्णन्ति, गृह्णाति, गृह्णीतः, गृह्णीथ, गृह्णामि, गृह्णावः,
गृह्णामः. उत्तमम्. उत्तमं भगिनि. अपि च अत्र शोभा भगिनी नवं शरीरम् इति दत्तमस्ति, तयोर्मध्ये सम्बन्धः कः?
नवं शरीरं विशेषविशेषणम् अस्ति भगिनि.
अत्र नवम् इति किमर्थमस्ति?
नवम् इति नवरन्ध्रः अस्ति शरीरे.
अत्र नवं, तत्र नवम् इति किमर्थं दत्तमस्ति? नव इति पदं विशेषणं, किन्तु अत्र शरीरम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा नवं शरीरम्.
आं भगिनि.
यदि बहुवचने वदामश्चेत् किं वदामः?
नवं नपुंसक अस्ति चेत् नवानि शरीराणि. शरीराणि
नवानि शरीराणि.
नवानि
याति इति पदमस्ति, तस्य तस्मिन् विषये वदतु. तत्र याति, तत्र क्रियापदम्.
अत्र याति गो इति अस्ति वा भगिनि? आयाति इत्युक्ते आगच्छति तथा याति आयाति याति गो अस्ति. जीवः इन्द्रियाणि गृहीत्वा नवं शरीरं याति.
कथं वदतु?
जीवः इन्द्रियाणि इन्द्रियाणां गृहीत्वा इन्द्रियाणि कर्मपदमेव अस्ति तत्र गृहीत्वा नवं शरीरं याति. अहम् अर्थं जानामि किन्तु नवं शरीरं याति. जीवा होल्ड्स् आन् टु द इन्द्रियाणि अण्ड् नवरन्ध्रस्य शरीरं इट् गोस् टु अनदर् शरीर.
कोऽपि वदति वा अत्र जीवः इन्द्रियाणि गृहीत्वा नवं शरीरं याति इत्युक्ते
नूतन शरीरं लब्ध्वा
नूतनशरीरं प्राप्नोति, नूतनं शरीरं प्राप्नोति मरणानन्तरम्. इन्द्रियाणि गृहीत्वा नूतनं शरीरं याति, नवं शरीरं याति इत्युक्ते प्राप्नोति. अत्र याति इति तत्र याति या धातुः धातुः अस्ति. याति यातः यान्ति तत्र याति या धातुः अपि सकर्मकधातुः एव. याति यातः यान्ति यासि याथः याथ यामि यावः यामः. यथा भगिनी उक्तवती आयाति इति पदमपि अस्ति आयाति. अनन्त
भगिनि अत्र अत्र नवम् इत्युक्ते नूतनम् अस्ति वा?
नूतनं
नव नम्बर् अस्ति
न न
किमर्थं चेत् नवरन्ध्रं रन्ध्राणि अस्ति नवम्
अत्र अत्र नवम् इत्युक्ते नूतनं शरीरम्
अस्तु
भगिनी.
वयं जानीमः वदतु.
क्षम्यतां भगिनी, या अत्र अष्टाध्यायी.com प्रापणे प्रापणे इत्युक्ते भगिनी?
तत्र प्रापणे इत्यपि समीचीनमेव भगिनी. वयं जानीमः अहं गृहं प्राप्नोमि इत्युक्ते अहं नगरं प्राप्नोमि इत्युक्ते प्राप् धातुः आप् धातुः तत्र अर्धद्वयम् अस्ति. अहं पूर्वमपि उक्तवती अहं उपाहारं उपायनं प्राप्नोमि इत्युक्ते ऐ गाट् द गिफ्ट् अथवा अहं नगरं प्राप्नोमि इत्युक्ते ऐ रीच्ड् द सिटि नगरं प्राप्नोमि इत्यस्मिन् अर्थे. तत्र प्रापणे इत्युक्ते गच्छति इत्यस्मिन् अर्थे तत्र या धातुः प्रापणे तत्र अर्थः सम्यक् एव.
अस्तु अस्तु सम्यक् किन्तु अहम् अवगच्छामि नास्ति किन्तु अधुना अवगच्छामि.
अस्तु शोभा भगिनी अष्टमं वाक्यं करोतु.
भोगान् भुक्त्वा जीवः पुनः मर्त्यलोकं विशति.
अत्र भोगान्
भोगान् द्वितीया बहुवचने कर्मपदमस्ति. भुक्त्वा भुङ्क्ते भुक् पदस्य भुक्त्वा अस्ति वा भगिनि?
उत्तमं.
भुक्त्वा जीवः पुनः मर्त्यलोकं विशति. मर्त्यलोकं
वदतु वदतु. अत्र मर्त्यलोकः इति पदमस्ति. मर्त्यलोकः इत्युक्ते कः?
भूमिः महि इहलोकः.
अहं चिन्तयामि तत्र तत्र मृ इति धातुः अस्ति तस्मात् म्रियते म्रियते इत्युक्ते वदतु.
यत्र मृत्युः भवति यत्र जनाः म्रियते तत् लोकः
म्रियन्ते जनाः म्रियन्ते
अतः मर्त्यलोकः लोकम् इति.
अत्र विश् धातुः सकर्मकः इति कृत्वा मर्त्यलोकं विशति, जीवः विशति. वदतु.
विशति इत्युक्ते एण्टर् इति अस्ति वा, प्रविशति,
प्रविशति.
अतः भोगान् भुक्त्वा स्वर्गलोके अस्ति इति अहं मन्ये. तस्य जीवस्य पुण्यफलानि स्वर्गलोके भुक्त्वा जीवः पुनः यदा फलानि पूरयति तत्र भगिनि भुक्त्वा तत्र ल्युट् प्रत्यय किमस्ति भगिनि?
पुनः वदतु, किं प्रत्ययः?
ल्युडन्त भुङ्क्ते यदा भोजनं समाप्तिः भवति तदा जीवः पुनः मर्त्यलोकं प्रविशति.
उत्तमं, तावदेव. भुजधातोः ल्युडन्त रूपं भोजनम्. धन्यवादः भगिनि. अनन्तरं धने महोदय भवान् करोतु, वदतु.
भगिनि एकः प्रश्नः, भगिनि जीवः पुंलिङ्ग् अकार रामवत्
रामवत् रामवत् अत्र तने महोदय भवान् करोतु नवमं वाक्यम्.
आं भगिनि, तत्त्वं विदित्वा त्वं न शोचितुम् अर्हसि. अत्र विदित्वा इत्यत्र विद् धातुः अस्ति, सः धातुः सकर्मकः अपि च सेट् अस्ति इति मन्ये. तस्य अर्थः अहं चिन्तयामि विदित्वा इत्युक्ते ज्ञात्वा.
उत्तमम् 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 इत्युक्ते अत्र पश्यतु महोदय, तत्त्वम् इति पदमस्ति, तत्र तत्त्वम् इति पदे पदद्वयमस्ति. वदतु.
तत् त्वं, तत् योगः त्वं.
तत् योगः त्वं, तदेव त्वम् इत्युक्ते किम्?
किं भगिनि पुनः?
तत्त्वम् इत्युक्ते साधारणतया तत्त्वं तत्त्वम् इति वदामः, किन्तु तत् तत् एव त्वम् इत्युक्ते सः परमात्मा एव त्वम्
तत्त्वम् असि इति
तत्त्वम् असि तदेव. अत्र विदित्वा यथा भवान् उक्तवान्, विद् धातुः पञ्चसु गणेषु अस्ति, पञ्चसु वा अथवा षट्सु गणेषु अस्ति विद् धातुः, विद् धातुः एव. किन्तु अत्र विद् धातुः ज्ञाने इत्यस्मिन् अर्थे, तत्र अत्र विद् धातोः रूपं वेत्ति, वेत्ति विद् धातोः एकं रूपं वेत्ति अस्ति, अदादिगणीयधातुः. वेत्ति इत्यस्य रूपं विदित्वा, विदित्वा इत्युक्ते ज्ञात्वा. किन्तु अन्यत् साधारणं रूपम् अस्ति विद् धातोः, विद्यते, विद्यते इत्युक्ते वर्तते, अस्ति, तादृशार्थः विद्यते आत्मनेपदीरूपं, तत्रापि विद् धातुः एव. अपि च तत्र अदादिगणीयधातुः वेत्ति अस्ति, विद्यते अस्ति चतुर्थगणे, षष्ठे गणे विन्दति इति रूपम् अस्ति. विन्दति इति पदमपि अस्मिन् पुस्तके एव अग्रे आगच्छति. अपि च चूरादिगणे अपि अस्ति. इत्युक्ते अत्र आहत्य विद् धातुः पञ्चसु गणेषु अस्ति. अत्र विद् धातुः वेत्ति. भवन्तः श्रुतवन्तः एव, शिशुर्वेत्ति, पशुर्वेत्ति, वेत्ति गानरसं फणिः इति एकं वाक्यम् अस्ति. शिशुर्वेत्ति अश्रुवेत्ति, वेत्ति इत्युक्ते तत्र अर्थः ज्ञात्वा जानाति. विद्ज्ञाने इत्यस्मिन् अर्थे अत्र अस्ति. किन्तु भूसत्तायां यथा भूसत्तायाम् अस्ति तथा एव विद् धातुः विद् सत्तायां विद्यते इति अपि अस्ति. अग्रिमं वाक्यं करोतु. अत्र महोदय शोचितुम् अर्हति अस्ति, शोचितुं तस्मिन् विषये वदतु.
अत्र शोचितुम् इत्यत्र सुच् धातोः तुमुन् सुच् धातोः तुमुनन्तरूपम् अस्ति. अर्हसि, शोचितुम् अर्हसि इत्युक्ते न जानामि
इत्युक्ते अत्र
अर्हः नास्ति.
अर्हः नास्ति तावदेव. तत्रैव दत्तमस्ति त्वं न अर्हसि. किं न अर्हसि? शोचितुं न अर्हसि.
विचारं करोतु.
शोकः शुच् धातुः, यदा भवान् उक्तवान् शुच् धातुः शोके इत्यस्मिन् अर्थे अस्ति. तत्र रूपं परस्मैपदरूपं, शोचति शोचतः शोचन्ति, तत्र रूपमस्ति. किन्तु सेट् धातुः अस्ति इति कृत्वा अत्र शुच् धातोः गुणकार्यं भूत्वा शोच्, अपि च अत्र गुणकार्यमस्ति अपि च इडागमः अस्ति, तदर्थमेव शोचितुम् इति रूपम्. त्वं शोचितुं न अर्हसि. यु डोण्ट् डिसर्व् टु क्रै, यु शुडन्ट् क्रै.
अर्हसि धातुः किं भगिनि?
अर्ह धातुः, अर्हसि साधारणधातुः एव भगिनि. अर्हति, अर्हतः, तादृशरीत्या.
वदतु भगिनि.
किमपि नास्ति महोदय, वदतु.
अत्र वेदः इति शब्दः विद् धातोः आगतः वा?
अहं चिन्तयामि विद् धातोः रूपमेव वेदः. अनन्तरम् अत्र अर्हसि मध्यमपुरुषे एकवचनरूपं. त्वं यदि भवान् तत्त्वं जानाति चेत् तत्त्वं जानातु, अनन्तरं मा चिन्तयतु, शोकं मा करोतु. शुच् धातोः रूपमेव शोकः, शुच् शोकः तत्र रूपमस्ति. अनन्तरं
भगिनि
वदतु. भगिनि
भगिनि अर् अत्र पूजायां
अर्हपूजायां तत्र तथा न वक्तव्यम्. अत्र अर्हपूजायाम् इत्यस्मिन् अर्थे एव स्वीकर्तव्यं. पृच्छतु भगिनि, भवती किं वक्तुमिच्छति?
अहं न अवगच्छामि. शोचितुम् अर्हसि इति
इत्युक्ते न शोचनीयम् इति अस्ति,
न शोचनीयं. किन्तु अत्र पूजायाम् अर्ह इत्युक्ते पूजायां.
भगिनि तत्र धातुपाठे एकम् साधारण अर्थ दत्तमस्ति, परन्तु बहवः अर्थाः भवितुम् अर्हति अर्हन्ति.
अस्तु अस्तु,
धन्यवादः.
किन्तु धातुद्वयमस्ति वा? परन्तु अहम् एकम् अहं न दृष्टवती, किन्तु अर्हधातुः एव दृष्टवती, अर्हपूजायाम् इति दृष्टवती. अहं सम्यक्तया न दृष्टवती बहुषु गणेषु अस्ति वा, केवलम् एकः एव धातुः अस्ति वा इति द्रष्टव्यम्. अन्तिमं वाक्यं करोतु महोदय. तने महोदय करोति वा दशमं वाक्यं?
क्षम्यताम्, अहं म्यूट् मध्ये आसीत्. ज्ञानासीना संशयं छित्त्वा योगम् आचर. अत्र छित्वा इत्यत्र छिद् धातुः अस्ति, अपि च अनिट् धातुः अस्ति, सकर्मकः अपि अस्ति. अत्र क्रियापदम् आचर इति अस्ति. अहं चिन्तयामि तत्र लोट् लकारे मध्यमपुरुष एकवचने अस्ति, आ उपसर्गपूर्वकः, चर् धातुः अस्ति वा?
उत्तमम्, आ उपसर्गपूर्वकः चर् धातुः. अत्र छित्त्वा इति पदमस्ति, तत्र लट् लकाररूपं किम्?
न जानामि.
चिनोति,
छिनत्ति, तत्र रुधादिगणीयधातुः छिनत्ति. तत्र रूपाणि कथं भवन्ति इत्युक्ते छिनत्ति, छिन्तः, छिन्दन्ति. भगवद्गीतायाम् एव अन्यः श्लोकः अस्ति, नयनं छिन्दन्ति, नयनं छिन्दन्ति शस्त्राणि, नयनं दहति पावकः. तत्र छिन्दन्ति इति रूपं दत्तमस्ति, तत्र धातुः अस्ति छिद् धातुः, रूपं छिनत्ति. छिनत्ति तत्र कस्मिन् अर्थे इत्युक्ते द्वैधीकरणे इति दत्तमस्ति. द्वैधीकरणे इत्युक्ते ब्रेकिङ्ग् इन् टु पीसेस्, टु पीसेस्. द्विधा इत्युक्ते टु पार्ट्स्. तत्र छिनत्ति इत्युक्ते अत्र किं दत्तमस्ति, ज्ञानासीना संशयं छित्त्वा योगम् आचर इति भगवान् वदति. अत्र ज्ञानासीना, वदतु महोदय, अत्र रूपं किम्? कोऽपि वदतु अत्र ज्ञानासीना.
तृतीयविभक्ति अस्ति,
तृतीयविभक्ति. अत्र समस्तपदमस्ति, समस्तपदम् अस्ति. अत्र ज्ञानासि, असि इत्युक्ते खड्गः,
खड्गः असि,
असि इत्युक्ते खड्गः अथवा कृपाणः, स्वोर्ट्. कीदृशखड्गः? ज्ञानासिः, वित् द हेल्प् आफ् ज्ञान, ज्ञानासिना. यदि ज्ञानासिना किं करोतु, संशयं छित्त्वा योगम् आचर. अर्जुन, ज्ञानासिना संशयं छित्त्वा योगम् आचर इति वदति. अत्र अशि इत्युक्ते कृपाणः, स्वोर्ड्. संशयः इत्युक्ते शङ्का, शङ्का. उत्तमं, सः वदति तादृशरीत्या. उत्तमं, धन्यवादः महोदय. अग्रे अत्र कः वदति, अत्र गौरी भगिनी, भवती पठितुम् इच्छति वा अग्रिमं वाक्यम्? अत्र गौरी भगिनी अपि अस्ति.
अस्मि, परन्तु अग्रे वाक्यं कुत्र अस्ति न जानामि.
अत्र भगिनी अग्रिमे पुटे इतोपि कानिचन वाक्यानि सन्ति, तृतीयम् अभ्यासं कुर्मः अधुना. तदेव,
यथोदाहरणं वाक्यद्वयस्य योजनं त्यक्त्वान्तरूपाणि उपयुज्य कुरुत. प्रथमं यथा कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयति, सर्वान् पश्यति.
अत्र सेनयोः, सेनयोः उभयोः, वदतु सेनयोः उभयोः
रथं स्थापयित्वा सर्वान् पश्यति.
अत्र सेनयोः उभयोः रूपं किम्?
सेनयोः उभयोः सप्तमी द्विवचनरूपम्.
षष्टी द्विवचनम् अस्ति.
पुनः वदतु. भगिनि भवत्याः दूरवाणी सम्यक् नास्ति भगिनि, किञ्चित् पुनः एकवारं डैल् करोतु, तत्र ध्वनिः अस्ति सम्यक् न श्रूयते किञ्चित्. भगिनि अत्र षष्टिद्विवचनमस्ति सेनयोः उभयोः, अत्र सेनयोः उभयोः मध्ये रथं स्थापयित्वा सर्वान् पश्यति, अत्र सर्वान् रूपं वदतु.
सर्वान् द्वितीय विभक्ति एक बहुवचनम्.
अत्र स्थापयति इति लट् रूपं, किन्तु स्थापयित्वा इति रूपम् अस्ति, अत्र इडागमः अभवत्. द्वितीयं वाक्यं करोतु.
द्वितीयं वाक्यम् अर्जुनः अहं योद्धुं न शक्नोमि इति वदति उपविशति.
अत्र वाक्यं संयोजयतु, वाक्यद्वयं संयोजयतु क्त्वा योजयित्वा.
अर्जुनः अहं योद्धुं न शक्नोमि इति उक्त्वा उपविशति.
उपविशति, उत्तमम्. उपविशति अत्र
उदित्वा
वदतु महोदय.
अत्र उक्त्वा नास्ति, उदित्वा अस्ति खलु.
उदित्वा अस्ति भगिनी. अत्र वद् धातोः रूपम् उदित्वा, वच् धातोः रूपम् उक्त्वा. अत्र उदित्वा एव वक्तव्यम्, उदित्वा इति वक्तव्यम्. अत्र उपविशति इति पदमस्ति, उपविशति इत्यस्य ल्यवन्त रूपं वदतु एकवारम्.
उपविशति, उप इति उपसर्ग योज्य विशति, विश् इति धातुः तिङन्तप्रत्ययः, एक प्रथमपुरुष अस्ति, उपविशति एकवचनम्.
अत्र तस्य ल्यबन्तरूपं वदतु एकवारम्. कोऽपि वदति वा अत्र
उपविश्य?
उपविश्य,
उपविश्य,
उपविश्य, तावदेव. तृतीयं करोतु भगिनि. भगिनि तत्र तृतीयं वाक्यं करोतु.
युद्धे शत्रून् जय, समृद्धं राज्यं भुङ्क्ष्व.
अत्र जय इति पदमस्ति, तत्र जय इत्यस्मिन् विषये वदतु.
जय जि इति धातुः अस्ति.
जि धातोः रूपं जयति, अत्र किं रूपं दत्तमस्ति?
जय अस्ति, जय एव अस्ति.
जय तत्र मध्यमपुरुष लोट् लकार एकवचनं. जय अर्जुन युद्धे शत्रून् जय, समृद्धं राज्यं भुङ्क्ष्व. अत्र वाक्यद्वयस्य मेलनं करोतु.
युद्धे शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व.
उत्तमम्. अत्र वयं पूर्वमेव दृष्टवन्तः भुङ्क्ष्व इत्यस्मिन् विषये. अग्रिमं वाक्यं करोतु.
अर्जुनः विश्वरूपं पश्यति, भीतः भवति.
संयोजयतु.
अर्जुनः विश्वरूपं दृष्ट्वा भीतः भवति.
भीतः भवति, विश्वरूपं दृष्ट्वा. अत्र भीतः इति पदमस्ति. भीतः इत्यस्मिन् विषये तने महोदय वदति वा? अहं वदामि नो चेत्
अत्र तान्तरूपम् अस्ति, अपि च धातुः भी दीर्घ इकारान्त धातुः अस्ति इति मन्ये.
आं महोदय, अत्र धातुः भी धातुः क्षान्तरूपं भीतः भीत. तत्र क्षान्तरूपं त्रिषु लिङ्गेषु भवति, परन्तु भीतिः इति पदमपि अस्ति. भीतिः क्तिन् प्रत्ययान्तरूपं, भीतः क्षान्तरूपं. तत्र भी धातुः तस्य रूपाणि बिभेति, बिभित, बिभीतः बिभ्यति इति रूपाणि भवन्ति. अहं चिन्तयामि भी धातुः द्वित्वम् अस्ति इति कारणतः जुहोत्यादिगणीयधातुः. बिभेति लट्लकार एकवचनरूपम् अस्ति बिभेति. धन्यवादः भगिनि, तत्र बहु ध्वनिः अस्ति, तदर्थं पुनः पृच्छामि. अधुना भूमा भगिनी भवती करोतु अग्रिमं वाक्यं.
कृष्णः अर्जुनाय दिव्यं चक्षुः ददाति, विश्वरूपं दर्शयति. कृष्णः अर्जुनाय दिव्यं चक्षुः दत्त्वा विश्वरूपं दर्शयति.
अत्र दिव्यं चक्षुः इति दत्तमस्ति. तत्र तत्र विशेषणविशेषभावः अस्ति, किन्तु तत्र दिव्यं चक्षुः तत्र पदं दृष्ट्वा वदतु भगिनि, लिङ्गं किम्?
दिव्यं चक्षुः द्वितीयाविभक्ति.
ददाति इति पदमस्ति इति कृत्वा तत्र कर्मपदम् एव दिव्यं चक्षुः. तत्र दिव्यम् इति पदम् अत्र द्वितीय एकवचनं, चक्षुः अपि द्वितीय एकवचनं. इत्युक्ते तत्र नपुंसकलिङ्गपदम् इति भाति. चक्षुष् इति भवति वा इति द्रष्टव्यम्. चक्षुः इत्युक्ते किं भगिनि वदतु?
चक्षुः दृष्टिः,
नेत्रं, लोचनं,
नेत्रस्य
नेत्रं, लोचनं, दृष्टिः. यथा भवती उक्तवती दृष्टिः, तदेव दृष् धातोः रूपम् एव दृष्टिः. अर्जुनाय वदतु भगिनि.
अर्जुनाय चतुर्थीविभक्ति.
अर्जुनाय भवती वदतु, अत्र मिलित्वा वदतु वाक्यद्वयं मेलयित्वा.
कृष्णः अर्जुनाय दिव्यं चक्षुः दत्त्वा विश्वरूपं दर्शयति.
अत्र दर्शयति इति रूपं निजन्तरूपम्, अत्रापि दृश् धातुः किन्तु निजन्तरूपम् अस्ति. पश्यति, दर्शयति. कृष्णः विश्वरूपं दर्शयति. अग्रिमं वाक्यं.
धृतराष्ट्रः सञ्जयं पृच्छति, विवरणं जानाति. सञ्जयं पृष्ट्वा युद्धविवरणं जानाति.
पृष्ट्वा युद्धविवरणं जानाति. अत्र सञ्जयं पृच्छति इति अस्ति. अत्र सञ्जयः इति पदमस्ति, तदपि समस्तपदमिति अहं चिन्तयामि. सम् उपसर्गपूर्वकः जयः, जी धातोः रूपम् एव जयः, सञ्जयः उत्तमः अर्थः अस्ति इति भाति तत्रापि. धृतराष्ट्रः सञ्जयं पृष्ट्वा युद्धविवरणं जानाति. वदतु
भगिनि. एकः प्रश्नः भगिनि, चक्षुः नपुंसकलिङ्गपदं किं पदं वा? प्रातिपदिकं चक्षुष चकारान्त नपुंसकलिङ्ग किन्तु
द्रष्टव्यं भगिनि. दृष्टवती वा भगिनि?
न, चक्षुः न दृष्टवती, किन्तु अन्य सु विश् सुत्विष् इति प्रातिपदिक अहं पश्यामि
भवती दृष्टवती चेत् वदतु, नो चेत् अहं दृष्ट्वा वदामि अनन्तरम्.
अस्तु भगिनि.
भगिनी चक्षुष् अस्ति वा भगिनि?
नपुंसकलिङ्गमध्ये
अस्ति भगिनि, शब्दमञ्जरी पुस्तके. सकारान्तः नपुंसकलिङ्गः पदमस्ति चक्षुः.
अहं पश्यामि. धन्यवादः.
वपु शब्दवत् अस्ति भगिनि.
नपुंसकलिङ्गपदम् अस्तु. धन्यवादः भगिनि. अनन्तरम् अत्र जानाति, अत्र जानाति इत्यस्य कृतान्तरूपं किं भगिनि वदतु
भगिनि?
अत्र ज्ञाधातुः. सप्तमं वाक्यं.
सः ईश्वरं जानाति, शान्तिं प्राप्नोति. सः ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति.
शान्तिं प्राप्नोति. अत्र शान्तिः इति पदम्, अत्र शान्तिः अपि क्तिङ् प्रत्ययान्तरूपम्. अत्र शं धातोः रूपं शान्तिः. अहं चिन्तयामि शं धातोः रूपं शाम्यति इति रूपं, दिवादिगणीयधातुः इति अहं चिन्तयामि. शान्तः अस्ति अपि च शान्तिः अपि अस्ति. तथा एव अत्र प्राप्नोति, तस्य रूपं वदतु भगिनि. किं रूपं सिद्ध्यति तत्र? प्राप्नोति कृत्वान्तरूपं वा ल्यवन्तरूपं वा?
प्राप्य.
धन्यवादः भगिनि. उषा भगिनी भवती करोतु अग्रिमं वाक्यम्.
अर्जुनः कृष्णस्य वाक्यं शृणोति, युद्धाय उत्तिष्ठति. अर्जुनः कृष्णस्य वाक्यं श्रुत्वा युद्धाय उत्तिष्ठति. कृष्णस्य षष्टिविभक्ति एकवचने अस्ति. उत्तिष्ठति त्वान्तरूपम् अस्ति चेत् उत्थाय अस्ति.
उत्थाय वाक्यं शृणोति, युद्धाय उत्तिष्ठति. युद्धाय चतुर्थ्यन्तं, चतुर्थ्यन्तं रूपम्. उत्तमम्. उत्तमं. नवमं वाक्यं.
योगिनः कर्मफलानि त्यजन्ति, आत्मशुद्धये कर्म कुर्वन्ति. योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति.
अत्र योगिनः प्रातिपदिकं किं भगिनि?
योगिनः इत्युक्ते योगी अस्ति वा?
योगिन् अत्र योगिनः, तत्र योगिनः इति दत्तमस्ति. तत्र रूपं किम्?
नकारान्तशब्दं योगिन आत्मनः
नकारान्तपदं, किन्तु अत्र प्रथमाविभक्ति बहुवचनरूपं.
योगिन्
षष्टिविभक्ति नास्ति वा भगिनि?
अत्र पश्यतु भगिनि, कर्तृपदं किं? योगिनः त्यजन्ति कर्तृपदं. योगिनः त्यजन्ति.
अस्तु.
केषु कुत्र तादृशं रूपं सिद्ध्यति योगिनः इति? तादृशं रूपं योगिनः इति पदं कुत्र आगच्छति, कोऽपि वदति वा? अत्र योगिनः इति रूपं बहुषु स्थलेषु आगच्छति. योगिन् शब्दे
कुत्र?
वदतु भगिनि.
प्रथमाविभक्ति
बहुवचनं
बहुवचनम्
अपि च
अपि च पञ्चमी
पञ्चमी षष्टि
अपि च योगी योगिनौ योगिनः योगिनं योगिनौ योगिनः परन्तु पञ्चमी षष्टि अपि योगिनः एव अत्र प्रथमा बहुवचनं कर्तृपदं योगिनः त्यजन्ति दे गो टुगेदर् किं त्यजन्ति कर्मफलानि त्यजन्ति अत्र कर्मफलानि इति समस्तपदं कोऽपि वदति वा अत्र कर्मफलानि ऊहां कृत्वा कर्मणः फलानि तत्र षष्टिविभक्तेः लोपः जातः
कर्मणस्य फल
अत्र षष्टि तत्पुरुषसमासः अस्ति वा
षष्टि तत्पुरुषसमासः अस्ति कर्मणः फलानि वदतु महोदय
अहं यतोहि तत्र उत्तरपदार्थप्रधानम् अस्ति
उत्तरपदार्थप्रधानः तत्पुरुषसमासः अत्र कर्मणः फलं कर्मफलं फलं त्यजन्ति किं फलं कर्मणः फलम् अत्र उत्तरपदार्थप्रधानः तत्पुरुषसमासः कर्मणः फलानि त्यजन्ति के योगिनः अत्र षष्टितत्पुरुषसमासः अस्ति त्यक्त्वा किं कुर्वन्ति आत्मशुद्धये कर्म कुर्वन्ति वदतु भगिनि
आत्मशुद्धये कर्म कुर्वन्ति इति
आत्मशुद्धये वदतु रूपम्
आत्मशुद्धये एकवचनं
शुद्धिः इति पदमस्ति भगिनि आत्मशुद्धिः अत्र चतुर्थीरूपं
लैक् हरये शब्दवत् अस्ति भगिनि हर्ष
मतिशब्दवदपि किमपि अत्र शुद्धये चतुर्थीरूपम् अस्ति अत्र योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति तत्र अर्थः कः कोऽपि वदति वा
आत्मनः शुद्धये कर्म कुर्वन्ति इति अस्ति वा
आत्मनः शुद्धिः इति वदामः वा तत्र आत्मनि शुद्धिः सप्तमी तत्पुरुषः भवति वा इति द्रष्टव्यम्
ओ अस्तु
आत्मनि शुद्धिः इति अहं चिन्तयामि किन्तु द्रष्टव्यम् आत्मशुद्धये कर्म कुर्वन्ति अग्रिमं करोतु भगिनि अत्र
सञ्जयः कृष्णार्जुनसंवादं स्मरति हर्षम् अनुभवति सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा हर्षम् अनुभवति
स्मृत्वा कृष्णार्जुनसंवादम् अत्रापि समस्तं पदमस्ति कृष्णार्जुनयोः संवादम्
द्वन्द्वसमास अनन्तरं षष्टि तत्पुरुषसमासः अस्ति वा
कथं वक्तव्यं द्वन्द्वगर्भः षष्टि तत्पुरुषः
च अर्जुनः च कृष्ण अर्जुनौ इति द्वन्द्वसमासः तयोः तं कृष्ण अर्जुनौ च संवादः च कृष्णार्जुनसंवादः तं कृष्णार्जुनसंवादम् इति
इत्युक्ते अत्र कृष्णार्जुनयोः इत्युक्ते युगपत् एकस्मिन् समये केवलं पदद्वयम् एव स्वीकृत्य समासं कुर्मः कृष्णार्जुन इति द्वन्द्वसमासः कृष्णः च अर्जुनः च द्वन्द्वसमासः अपि च कृष्णार्जुनयोः षष्टिद्विवचनरूपं कृष्णार्जुनयोः संवादः कृष्णार्जुनसंवादः तं इति तथा ग्रहवाक्यं वक्तव्यम्. इत्युक्ते द्वन्द्वगर्भ षष्ठी तत्पुरुषसमासः. स्मृत्वा, स्मृधातोः रूपं स्मृत्वा अनन्तरं हर्षम् अनुभवति. अत्र हर्षम् इति पदमस्ति, हर्षः इति वदतु.
प्रश्नः भगिनी, द्वन्द्व इत्युक्ते द्वे पदौ इति एव अस्ति वा?
तत्र द्वन्द्व, केवलं द्वन्द्व इति नामकरणं दत्तमस्ति, किन्तु तत्र बहूनि पदानि अपि भवितुमर्हन्ति. यथा रामलक्ष्मणभरतशत्रुघ्नाः इत्यपि
तदपि
द्वन्द्वसमासः. केवलं नाम द्वन्द्व इति दत्तमस्ति, किन्तु बहूनि पदानि अपि तत्र तस्मिन् समस्तपदे भवितुमर्हन्ति.
कथं जानामि भगिनी द्वन्द्वसमासः अस्ति इति?
भगिनी, अहं चिन्तयामि तत्र द्वन्द्व नाम अस्ति यतोहि तत्र द्वन्द्व इत्युक्ते वयं न जानीमः यत् द्वन्द्व इत्युक्ते द्वयोः पद सर्वेषां पदानां सामान्य बलः अस्ति इति.
वदतु भगिनि.
राम च लक्ष्मण च सीता च भरतः च शत्रुघ्नः च इति द्वन्द्वसमासः.
इत्युक्ते उत्तमम् उत्तमम्. इत्युक्ते कथं वक्तव्यं, तत्र समासविषये वयं पठामः, किन्तु तत्र यदि समस्तपदे केवलं पदद्वयमेव अस्ति चेत् तत्र उभयपदार्थप्रधानः द्वन्द्वः इति वदामः. इत्युक्ते तस्मिन् पदे यानि यानि पदानि सन्ति तेषां सर्वेषां पदानाम् अर्थप्राधान्यम् अस्ति. यथा उत्तरपदार्थप्रधानः तत्पुरुषसमासः, पूर्वपदार्थप्रधानः अव्ययीभावः, तथा एव उभयपदार्थप्रधानः द्वन्द्वः, अन्यपदार्थप्रधानः बहुव्रीहिः इति तथा वक्तव्यं. यथा अत्र तनयमहोदयः उक्तवान् तस्मिन् पदे यानि यानि पदानि सन्ति तेषां सर्वेषां प्राधान्यमस्ति एव. इत्युक्ते तत्र रामः भिन्नः, लक्ष्मणः भिन्नः, तत्र सर्वाणि नामानि एव, तेषां प्राधान्यता तस्मिन् पदे अस्ति इति कारणतः उभयपदार्थप्रधानः. केवलम् उभय इत्युक्ते केवलं पदद्वयम् इति उक्तमस्ति, किन्तु बहूनि पदानि अपि तत्र भवितुमर्हन्ति. उत्तमम्. अनन्तरम् अत्र शीघ्रं समापयामः स्मृतिं.
हर्षपदमस्ति न भगिनि?
अत्र हृष् धातोः रूपं हर्षः. हृष्यति, वयं जानीमः हृष्यति इति दिवादिगणीयधातुः. तुष्टि, तुष्टौ इति इत्यस्मिन् अर्थे हर्षः. सः हर्षम् अनुभवति. अनुभवति इत्यस्य लेवन्त् रूपं किं भगिनि?
अनुभूय.
अनुभूय अनु उपसर्गपूर्वकः भूधातुः. अग्रिमं वाक्यं करोतु.
अर्जुनः स्मृतिं लभते, स्वधर्मचरणं स्वधर्माचरणं करोति. अर्जुनः स्मृतिं लब्ध्वा स्वधर्माचरणं करोति.
स्वधर्माचरणम् अत्रापि समस्तपदमस्ति. स्वधर्मस्य आचरणं वदतु.
अत्र अव्ययीभावसमासस्ति वा?
यत्र अत्र वा
स्वधर्माचरणं
धर्मस्य आचरणं सः आचरणं करोति. तत्र कथं द्रष्टव्यम् इत्युक्ते तत्र तस्मिन् पदे अन्तिमक्रियया सह किं पदम् अन्वेति इति द्रष्टव्यं. क्रियया सह
उत्तरपदात्प्रधानम् अस्ति अहं चिन्तयामि.
उत्तरपदम् इत्युक्ते तथा अर्धं दृष्ट्वा वयं चिन्तनं करणीयं समासस्य विषये. तत्र त्रीणि पदानि सन्ति, स्व धर्म आचरण. अत्र क्रियापदेन सह कस्य पदस्य सम्बन्धः अस्ति? चरण आचरणम् आचरणं करोति, आचरणं करोति इति आचरणम् इति पदस्य अन्वयः क्रियापदेन सह अस्ति, अतः उत्तरपदार्थप्रधानः.
अतः तत्पुरुषसमासः अस्ति.
तत्पुरुषसमासः स्वधर्मस्य आचरणम्, अतः षष्टि तत्पुरुषसमासः भवति. उत्तमम्. धन्यवादः. स्मरति लट् रूपं, स्मृतिः क्तिन् रूपं स्मृतिः, किन्तु स्मृतिं लब्ध्वा, लब्ध्वा इति अस्ति लब्धातुः कर्मपदम् एव भाति. अस्तु,
स्मृतिं लब्ध्वा इत्युक्ते भगिनि
प्राप्य. अर्जुनः अत्र स्मृतिः इत्युक्ते ज्ञानम् इति अर्थः भगिनि. स्मृतिः इत्युक्ते स्मरणम् इति तथा नास्ति. यथा भगवान् भगवद्गीताम् उक्तवान् तदा अर्जुनः स्मृतिं लभते अपि च स्वधर्माचरणं करोति इत्युक्ते युद्धं करोति, सः ज्ञानं प्राप्नोति इत्यस्मिन् अर्थे अत्र स्मृतिः इत्युक्ते.
सान्स्क्रिट् डिक्षनरि मध्ये हिन्दू ला बुक् थिङ्किङ्ग् आफ् आर् अपान् रिमेम्बरिङ्ग् डिसैर् रिमेम्बरन्स् बहूनि पदानि दत्तमस्ति भगिनि.
भगिनि अहं श्रुतवान् अस्ति श्रुतिः इत्युक्ते वेदाः, परन्तु स्मृतिः इत्युक्ते अन्ये शास्त्रीयग्रन्थाः ये पौरुषेय सन्ति ते इति अस्ति वा?
श्रुतिः, श्रुतिः इत्युक्ते वेदाः. तत्र एकः श्लोकः अस्ति, श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् इति श्लोकः अस्ति. तत्र तस्मिन् श्लोके तत्र अर्थं पश्यामश्चेत् श्रुतिः यथा भवान् उक्तवान् श्रुतिः वेदाः, स्मृतिः इत्युक्ते प्रायशः पुराणानि इति भवति वा अन्ये ग्रन्थाः.
स्मृति वेदान्ताः,
वेदान्तः इत्युक्ते वेदानाम् अन्तिमभागः इति अर्थः. वेदानाम् अन्तिमभागः इत्युक्ते उपनिषदः.
उपनिषदः
वेदान्तः इत्युक्ते उपनिषद सारः एव, वेदस्य अथवा वेदानाम् अन्तिमभागाः एव वेदान्तः. उत्तमम्. अनन्तरं स्वधर्माचरणं करोति, जीवः कर्मफलं भुङ्क्ते अपि च पुनर्जन्म प्राप्नोति. तने महोदय भवान् करोतु एतद् वाक्यम्.
आं भगिनि, जीवः कर्मफलं भुङ्क्ते पुनर्जन्म प्राप्नोति. जीवः कर्मफलं भुक्त्वा पुनर्जन्म प्राप्नोति.
कर्मफलं
भगिनि भुक्त्वा नास्ति,
भुक्त्वा एव भुक्त्वा.
अत्र कर्मफलम् इत्यपि समस्तपदम् अस्ति, अपि च उत्तरपदार्थप्रधानम् अस्ति, अतः तत्पुरुषसमासः अस्ति. कर्मस्य फलम् इति विग्रहवाक्यं मन्ये तर्हि षष्टि तत्पुरुषसमासः अस्ति इति मन्ये.
तत्र कर्मस्य फलम् इति न वदामः, कर्मणः.
हा आम् आम् क्षम्यतां, कर्मणः फलम्.
कर्मणः फलं भुङ्क्ते भगिनि. अत्र भुजधातोः रूपं भुक्त्वा एव, तत्र तत्र नकारः इत्युक्ते क्वान्तरूपे नकारः ञकारः वा न श्रूयते तत्र भुक्त्वा एव पुनर्जन्म प्राप्नोति जीवः कर्मणः फलं भुक्त्वा पुनर्जन्म प्राप्नोति अग्रिमं वाक्यं महोदय
भगिनी एकः प्रश्नः पुनर्जन्मम् अपि समीचीनम् अस्ति वा भगिनी पुनर्जन्म
जन्म इति नपुंसकलिङ्ग् अस्ति इति मन्ये
जन्मपदं जन्म जन्मनि जन्मानि नपुंसकलिङ्गपदं नकारान्तपदं जन्मन् यथा कर्मशब्दवत् जन्म जन्मनि जन्मानि पुनः जन्म जन्मनि जन्मानि तादृशरीत्या रूपाणि भवन्ति नपुंसकलिङ्गनकारान्तपदं पुनर्जन्म प्राप्नोति अत्र पश्यतु भगिनि भवती समीचीनतया दृष्टवती पुनर्जन्म इति पदम् अत्र कर्मपदम्
प्राप्नोति क्रियापदम् अस्ति पुनर्जन्मक्रियापदं परन्तु अहं तु चिन्तयामि पुनर्जन्मं
न न इत्युक्ते अत्र जन्मपदं नपुंसकलिङ्गपदम् इति कृत्वा अत्र द्वितीयाविभक्ति एकवचनरूपम् अपि जन्म एव
अस्तु भगिनि जन्मन् अस्ति वा भगिनि प्रातिपदिकम् ऐ मीन् प्रथमपुरुष
प्रथमपुरुष एकवचन प्रथमपुरुष न प्रथमविभक्ति
प्रथमविभक्ति एकवचनं
जन्म
जन्म
तत्र कर्मवत् कर्मशब्दवत्
अस्तु भगिनि
जन्म जन्मनि जन्मानि अत्र पुनर्जन्म इति अपि तत्र समासः अस्ति अत्र तत्र पुनः इति वयं शृणुमः विसर्गस्य स्थाने रेफादेशः कथं भवति इति अपि चिन्तनीयम् उत्तमम् अग्रिमं वाक्यं करोतु महोदय
आम् योगिनः मनः आत्मनि योजयन्ति ध्यानं कुर्वन्ति योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति अत्र अहं चिन्तयामि मनः इति मनस् सकारान्त नपुंसकलिङ्गपदमस्ति अपि च अत्र द्वितीया विभक्तौ अस्ति
मनः योजयन्ति अत्र वाक्यं योगिनः मनः योजयन्ति अत्र द्वितीय एकवचनं कुत्र योजयन्ति आत्मनि आत्मनि रूपं वदतु आत्मनि
आत्मनि आत्मन् नकारान्त पुल्लिङ्गशब्दः तस्मात् सप्तमी एकवचन आत्मनि इति
आत्मनि ध्यानं कुर्वन्ति अत्र ध्यानम् इति रूपम् इति उत्तमम् तत्र ध्यै धातोः त्वान्तरूपं किं
ध्यै धातोः त्वान्तरूपं ध्यात्वा अस्ति वा
ध्यात्वा लट्लकाररूपं
ध्यायति इति अस्ति वा
ध्यायति ध्यात्वा उत्तमं महोदय धन्यवादः अग्रे अत्र शोभा भगिनी भवती करोतु अग्रिमं वाक्यम्
आम् कर्मबन्धिनः म्रियन्ते पुनः जायन्ते तत्र कर्मबन्धिनः ये अर्थं वदामि वा भगिनि अथवा व्याकरणं
भवती किम् अवगतवती प्रथमतया वदतु
ये जनाः कर्मफलानां बन्धितानि सन्ति ते मृत्यानन्तरम् इति वक्तुं शक्नोमि वा मृत्वा पुनः जन्मं प्राप्नुवन्ति जायन्ते हा इत्युक्ते पुनः जन्मं प्राप्नुवन्ति
उत्तमम्. अत्र कर्मबन्धिन कर्मबन्धिनः इति पदमस्ति, तस्मिन् विषये किञ्चित् वदति वा?
कर्मबन्धिनः तत्र योगिनः समासपदमस्ति. अहं न जानामि समासस्य विषये,
चिन्ता मास्तु.
कर्म बन्धि बन्धि
अत्र
अहं प्रयत्नं करोमि वा? समस्त अहं चिन्तयामि अत्रापि उत्तरपदार्थप्रधानम् अस्ति, अतः तत्पुरुषसमासः अस्ति. अपि च अहं चिन्तयामि कर्मसु बन्धि अथवा कर्मणि बन्धि सप्तमी तत्पुरुषसमासः अस्ति इति.
महोदय अत्र चिन्तयतु, कर्मणा बन्धितः इत्युक्ते तृतीया भवति कर्मणा. बन्धनं रज्जुबद्धः इति वदामश्चेत् रज्जुबद्धः कथं वक्तव्यं विग्रहवाक्यं? रज्ज्वाबद्धः तथा एव अत्र कर्मणा बद्धः. अहं चिन्तयामि तृतीया तत्पुरुषसमासः, किन्तु अत्र समस्तपदं यथा भवान् उक्तवान् अत्र समस्तपदमेव अस्ति. अत्र प्रथमाविभक्ति एकवचनरूपं कर्मबन्धी नकारान्तपदम् इति कृत्वा कर्मबन्धिनः इति प्रथमा बहुवचनरूपम् अस्ति. किमर्थं प्रथमा बहुवचनं? म्रियन्ते इति पदमस्ति, तत्र ब्रू धातुः म्रियते म्रियन्ते. अत्र कर्मपदं नास्ति, किमर्थं नास्ति भगिनि वदतु, किमर्थं नास्ति?
अत्र अकर्मक अस्ति वा तत् धातुः भगिनि?
अकर्मकधातुः मृधातुः अकर्मकधातुः. अपि च जन् धातुः अपि अकर्मकः.
जन्
जन् धातोः रूपं जायते, तदर्थमेव कर्मबन्धिनः म्रियन्ते, कर्मबन्धिनः पुनः जायन्ते. तत्र वाक्यद्वयम् अस्ति किन्तु तयोः कर्मपदं नास्ति.
कर्मबन्धिनः तत्र मृत्वा पुनः जायन्ते.
म्रियन्ते अपि च जायन्ते, तत्र अकर्मकधातवः.
अत्र भगिनि प्रश्नः, यदि वयं संयोजनं कुर्मः चेत् तत्र द्वे क्रियापदानि अपि एकतारूपम् एव सन्ति वा? अकर्मक अस्ति चेत् अकर्मक एव प्रथमवाक्यम् अपि द्वितीय, तथा नास्ति?
अत्र भवति पुनः एकवारम् अत्र इत्युक्ते इतोपि अत्र कर्मबन्धिनः मृत्वा पुनः तत्र जन् धातोः रूपम् अहं चिन्तयामि जनित्वा.
जनित्वा न भगिनि, मम प्रश्नः तत्र म्रियन्ते अपि जायन्ते अकर्मक क्रियपदानि सन्ति अकर्मकधातोः, तत्र द्वे अपि अकर्मक. यदि वयं द्वे वाक्यानि त्वान्तरूपं स्वीकृत्य संयोजनं कुर्मः चेत् द्वे वाक्ययोः क्रियापदानि समान सन्ति वा?
अत्र
नरः ईश्वरे कर्म क्षम्यतां भगिनि, वदतु भगिनि.
अत्र मया सम्यक्तया न अवगतं भगिनि, अतः किमपि वक्तुं न शक्नोमि. अत्र कर्मबन्धिनः म्रियन्ते इति एकं वाक्यं अकर्मकधातुः अस्ति तत्र, अतः कर्मपदं नास्ति. अपि च द्वितीये वाक्ये अपि कर्ता कर्मबन्धिनः एव, कर्मबन्धिनः जायन्ते. यदि भवती क्त्वान्तरूपं योजयित्वा वाक्यं लेखितुमिच्छति चेत् मृत्वा कर्मबन्धिनः मृत्वा पुनः जनित्वा तथा.
एकवाक्यं सकर्मक, द्वितीयवाक्यम् अकर्मक इति अपि
भवितुमर्हति.
तदेव भगिनि, धन्यवादः.
अग्रिमं वाक्यं
नरः ईश्वरे कर्मणां न्यासं कुरुते शान्तिं प्राप्नोति. नरः जनः ईश्वरे सप्तमी विभक्ति, कर्मणां द्वितीया बहुवचनं, न्यासं कुरुते अत्र न्यासम् ऊहां करोमि समर्पितम् अस्ति वा?
षष्ठी बहुवचनम् अस्ति कर्मणाम् इति.
कर्मणां षष्ठी बहुवचनम् तत्र किं तत्र कर्मणां न्यासः इति पृथक्तया लिखितमस्ति, किन्तु तत्रापि समस्तपदं योजयितुं शक्नुमः. यदि वयं पृथक्तया पदं दत्तमस्ति कर्मणां न्यासः, किं भवति तत्र कर्मन्यासः इति समस्तपदं लेखितुं शक्नुमः तत्र. कर्मणाम् इति पदं षष्ठी बहुवचनमस्ति. न्यासं कुरुते, करोतु भगिनि, रूपं किं भवति वाक्यस्य मेलनं कृत्वा?
नरः ईश्वरे कर्मणां न्यासं कृत्वा
कृत्वा
शान्तिं प्राप्नोति.
उत्तमं, धन्यवादः भगिनि. अधुना अत्र गीताञ्जलि भगिनी भवती करोतु अग्रिमं वाक्यम्.
आं भगिनि, ईश्वरः भक्तं त्रायते धर्मरक्षणं कुरुते. ईश्वरः भक्तं त्रायते
अत्र धातुः त्रै इति धातुः अस्ति, त्रै धातोः रूपं त्रायते, त्रात्वा यथा ध्यै धातोः रूपं ध्यात्वा, अत्र त्रै धातोः रूपं त्रात्वा. ईश्वरः भक्तं त्रायते, त्रायते इत्युक्ते किम्?
त्रायते रक्षणं करोति.
उत्तमं, रक्षणं करोति.
ईश्वरः भक्तं त्रात्वा धर्मरक्षणं कुरुते.
उत्तमं, धर्मरक्षणम् अत्रापि षष्ठी तत्पुरुषसमासः, धर्मस्य रक्षणं,
धर्मस्य रक्षणं कुरुते आत्मनेपदि.
कुरुते आत्मनेपदि. उत्तमं,
भक्तः अद्वेष्टा भवति ईश्वरं भजति. भक्तः अद्वेष्टा भूत्वा ईश्वरं भजति.
अद्वेष्टा भूत्वा, अत्र आ इति नकारात्मकः अर्थे अस्ति. अत्र द्विष् इति धातोः अस्ति, द्वेष्टि इति तस्य लट्लकाररूपम् इत्युक्ते अत्र प्रीतिः नास्ति इत्यस्मिन् अर्थे द्विष् धातोः रूपं तत्र लट्रूपं द्वेष्टि. भूत्वा ईश्वरं भजति, उत्तमम्. अत्र इतोपि किं दत्तमस्ति? भज् धातोः रूपं भजति, भज् धातोः रूपमेव भक्तः क्तान्तरूपं. तत्र भज् सेवायां भजति इति भुवादिगणीयधातुः, भज् सेवायां भज् भक्तः, किन्तु भक्तिः इति अपि अस्ति. त्यज् इत्युक्ते एते धातवः जकारान्तधातवः. जकारान्तधातुषु तत्र जकारस्य स्थाने ककारादेशः भवति विशिष्टसूत्रेण. भज् भक्त, त्यज् त्यक्त, भुज् भुक्त, तादृशरीत्या रूपाणि सिद्ध्यन्ति विशिष्टसन्धिकार्याणि भूत्वा. अनन्तरम् अष्टादशं वाक्यं करोतु भगिनि.
ईश्वरः दुष्कृतां नाशं करोति, साधूनां रक्षणं करोति.
दुष्कृतां रूपं किम्?
दुष्कृतां षष्टि
बहुवचनं.
बहुवचनम् षष्टि
अत्र प्रथम एकवचनं वदतु.
दुष्कृत्
तकारान्तपदम् इत्युक्ते अत्र वयं जानीमः सुहृद् तत्र हलन्तपदं तत्र दुष्कृत् तत्र विपरीत अर्थपदमपि अस्ति. सुकृत् दुष्कृत् यः evil doer इत्यस्मिन् अर्थे दुष्कृत् इति पदं षष्टिबहुवचनरूपम् अस्ति. नश् धातोः रूपं नाशः. तत्र नश्यति वयं जानीमः, नश्यति इति रूपं जानीमः नश् धातोः रूपं, तदेव अत्र नाशः. ईश्वरः दुष्कृतां नाशं करोति इत्युक्ते दुष्टजनानां नाशं करोति.
कृत्वा
किं करोति?
रक्षणं करोति.
उत्तमं.
साधूनाम्
अग्रिमं वाक्यं
मानवाः स्वकर्मणा देवम् अर्चन्ति, सिद्धिं वन्दन्ति.
विन्दन्ति.
क्षम्यतां भगिनि, विन्दन्ति.
अत्र साधूनाम् इति पदमस्ति. साधूनाम् इति पदस्य प्रथमाविभक्तिरूपाणि त्रीणि रूपाणि वदतु.
साधु गुरुवत् गुरुवत् भगिनि
गुरुवत्
गुरु गुरुः गुरु गुरु गुर्वः.
उत्तमं. साधुः साधु साधवः
साधवः.
किन्तु तत्र अन्यत् रूपमपि अस्ति साधु. सम्यक् सम्यक् भगिनी, साधु साधु इति वदामः तत्रापि तत्र साधु इति पदमस्ति, किन्तु अत्र गुरुशब्दवत्. अत्र रक्षणं इति ल्युडन्तरूपम् अस्ति. साधारणतया अत्र ल्युडन्तरूपात् पूर्वं षष्टिरूपं पश्यामः. साधूनां रक्षणं, रक्षणम् इति ल्युडन्तपदम् इति कृत्वा वयम् अवगन्तुं शक्नुमः सुलभतया. षष्टिरूपमस्ति तत्र पुस्तकस्य पठनं तादृशरीत्या.
ल्युडन्त अपि च कर्मपदमस्ति.
कर्मपदमस्ति
भगिनी. साधु अव्ययपदम् अस्ति अपि.
अव्ययपदमस्ति इति भाति. साधारणतया भवती सम्यक् रीत्या कृतवती इत्यस्मिन् अर्थे साधु भगिनी, साधु सम्यक् इति वदामः. तत्र साधु पदमपि अस्ति इत्युक्ते अव्ययमपि अस्ति. अग्रिमं.
मानवाः स्वकर्मणा देवम् अर्चन्ति, सिद्धिं विन्दन्ति. मानवाः बहुवचन प्रथमविभक्ति. मानवाः स्वकर्मणा, कर्मणा इत्युक्ते तृतीया. देवम् अर्चन्ति, अर्चित्वा सिद्धिं विन्दन्ति.
विन्दन्ति तत्र अर्चति, अत्र अर्च इति धातुः अस्ति, अर्चति पूजायाम् इत्यस्मिन् अर्थे पदमस्ति, अर्चन्ति इति दत्तमस्ति. मानवाः अर्चन्ति, देवम् अर्चन्ति, कथं स्वकर्मणा अर्चन्ति इत्युक्ते स्वस्य कर्मणा सिद्धिं विन्दन्ति. अत्र पूर्वं वयं दृष्टवन्तः विद् धातुः, अत्र अत्रापि विद् धातुः एव, किन्तु भिन्नधातुः, भिन्नगणे अस्ति. अत्र भिन्नगणे अस्ति, अत्र धातुः विद् धातुः तुदादिगणीयधातुः, विन्दति रूपम् इत्युक्ते विद् धातोः रूपं वेत्ति अस्ति, विद्यते अस्ति, विन्दति अपि अस्ति, किन्तु अर्थभेदः अस्ति. अत्र विन्दन्ति इत्युक्ते प्राप्नोति इत्यस्मिन् अर्थे, लाभे. तुदादिगणीयधातुः विन्दति, विन्दतः, विन्दन्ति, तादृशरीत्या रूपाणि भवन्ति. अत्र सिद्धिं विन्दन्ति सकर्मकधातुः. अन्तिमं करोतु भगिनि.
योगी अहङ्कारं त्यजति, शान्तः भवति. योगी इति योगिन् प्रथमविभक्ति एकवचन, अहङ्कारं कर्मपदं त्यजति, त्यक्त्वा शान्तः भवति. शान्तः यथा भवति अवदत्, शान्तः अपि च शान्ति शं धातोः
रूपाणि रूपाणि. अहं चिन्तयामि शं शाम्यति दिवादिगणीयधातुः, यथा शं शाम्यति दिव् दीव्यति तथा भवति इति अहं चिन्तयामि, परन्तु द्रष्टव्यम्. अतः शान्त इति पदं क्तान्तरूपं, शान्ति क्तिन् रूपं, वयं पूर्वमपि दृष्टवन्तः तादृशानि रूपाणि. उत्तमम्. अपि च अस्माकं पार्श्वे अल्लाउद्दीनस्य दीपः अस्ति, किन्तु समयः जातः. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः भगिनी, नमस्कारः.
धन्यवादः भगिनी.
धन्यवादः, नमस्कारः.
नमस्कारः.